एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। नेपालीनाम् द्वितीयम् महद यमपञ्चक पर्व ह्यसायम् यमदीपदानानन्तरम् प्रारब्धम् वर्तते। कार्तिक कृष्ण त्रयोदश्याः आरभ्य कार्तिक शुक्ल द्वितीयाम् यावत् पर्वेदम् समायोज्यते। उपलक्ष्येऽस्मिन् अद्य विधिपूर्वकम् काकपूजनम् विधीयते। पूजनानन्तरम् च काकेभ्यः बलिरूपेण खाद्यान्नानि प्रदीयन्ते। शास्त्रेषु काकः यमदूतो मन्यते इत्यतः काकपूजनेन यमः प्रसीदतीति विश्वस्यते। काका हि विविधध्वनिभिः अस्मान् शुभाशुभ सूचनानि सूचयन्ति इति जनविश्वासो वर्तते। मानवजीवनेन सह घनिष्ठ सम्बन्धम् स्थापयतः काकस्य पूजनम् मानवस्य गुणग्राहितायाः परिचयोऽस्ति। अद्यैव धन्वन्तरी जयन्ती च। धन्वन्तरेः पूजन पुरस्सरम् सम्मान्यते। धन्वन्तरी आयुर्वेद प्रवर्तको मन्यते यश्च भगवतो नारायणस्य अंशावतारत्वेन समाद्रियते। राष्ट्रपतिः रामचन्द्र पौडेलः भयरहिते वातावरणे स्वतन्त्रस्य स्वच्छस्य निष्पक्षस्य च निर्वाचनस्य वातावरणम् निर्मातुम् सर्वकारम् सुरक्षानिकायानाम् प्रमुखान् च अनुरुणद्धि। शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्य प्रधानमन्त्रिणः सुशीला कार्किणः मन्त्रिणाम् च सहभागितायाम् सम्भूते विमर्शने चतुर्णामेव सुरक्षानिकायानाम् प्रमुखान् राष्ट्रपति पौडेलः राजनीतिकदलानि सर्वान् नागरिकान् च निर्वाचनस्य विषये आश्वस्तान् विधातुम् अन्वरुणत्। राष्ट्रपतिः पौडेलः शान्ति सुरक्षाम् संस्थापयितुम् भयरहिते वातावरणे निर्वाचनम् सम्पादयितुम् च सुरक्षानिकायैः प्रभावकारिणी भूमिका निर्वोढव्येति बलम् प्रदत्तवान् अस्तीति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। तदवसरे प्रधानमन्त्री कार्की भयरहिते वातावरणे स्वतन्त्रम् निष्पक्षम् च निर्वाचनम् सम्पादयितुम् सर्वकारेण सर्वविधाः उपायाः अवलम्ब्यन्ते इति प्रतिबद्धताम् व्यक्तवती। प्रधानमन्त्री कार्की निर्वाचनाय पूर्ण पूर्वकार्याणाम् कृते सुरक्षानिकायेभ्यः आवश्यक सम्पूर्ण स्रोतसाधनानि दापयितुम् च सर्वकारः प्रतिबद्धोऽस्ति इति अगदत्। तदवसरे सुरक्षानिकायानाम् प्रमुखैः शान्ति सुरक्षाम् संस्थाप्य भयरहिते वातावरणे निर्वाचनम् सम्पादयितुम् सुरक्षानिकायाः समर्थाः सन्तीति विश्वासः प्रदापितः आसीत्। नेकपा माओवादी केन्द्रस्य महाधिवेशनायोजक समितेः संयोजकः पुष्पकमल दाहाल प्रचण्डः आगामिनः फाल्गुन मासस्य एकविंश दिवसस्य निर्वाचनम् सफलीकर्तुम् सर्वेषाम् ऐकबद्धतायाः आवश्यकतास्तीति उक्तवान् वर्तते। अखिल नेपाल ट्रेड युनियन महासंघेन ह्य पेरिस डाँडावर्तिनी दलमुख्यालये आयोजिते कार्यक्रमे संयोजकः प्रचण्ड संविधानस्य लोकतन्त्रस्य च रक्षणाय सम्प्रति सर्वाधिकम् सहजम् समावेशी राष्ट्रहितस्य विकल्पश्च वा आगामी निर्वाचनमस्तीत्यतः अस्य सफलीकरणाय समेषाम् ऐकबद्धतायाः आवश्यकतास्तीति उदैरयत्। संयोजकः प्रचण्डः निर्धारिते दिनांके एव निर्वाचनम् सम्पादयितुम् अन्तर्राष्ट्रिय समुदायेनापि अनुकूल भूमिका निर्वक्ष्यते इति विश्वासम् व्यक्तवान्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली गदति राजनीतिक दलैस संवादेन विना निर्वाचनस्य वातावरणस्य निर्माणम् न सम्भवति। च्यासलवर्तिनी दल केन्द्रीय कार्यालये पूर्वे जिह्वा आयोजिते सम्पर्क समन्वय समितेः कार्यक्रमे अध्यक्ष ओली प्रहरीणाम् एकसहस्रस्य शतद्वयस्य च शस्त्रास्त्राणाम् लक्षतः अधिकानाम् गोलिकानाम् च लुण्ठनस्य सार्ध पञ्चसहस्राणाम् कारावासिनाम् बन्दीजनानाम् पलायनस्य च अवस्थायाम् निर्वाचनम् सम्पादयितुम् तत्र सहभागिताम् दर्शयितुम् च काठिन्यम् वर्तते इति अवोचत्। अध्यक्ष ओली विघटित प्रतिनिधि सभायाः पुनस्थापनायाम् दलेन बलम् प्रदत्तम् अस्तीति ज्ञापयन् दलस्य नीतौ स्पष्टो भूत्वा निर्भयेन अग्रे वर्धितुम् कार्यकर्तृन् अन्वरुणात्। जेएनजी आन्दोलनस्य अग्रण्यः मिराज ढुङ्गानाविदस्य समूहेन प्रत्यक्ष कार्यकारिणः व्यवस्थायाः सम्पादनस्य स्वस्य याचनायाः अपूरणम् यावत् निर्वाचने सहभागिता न भविष्यतीति ज्ञापितम् वर्तते। नयाँ वानेश्वर स्थाने पूर्वे द्यू पत्रकार सम्मेलनमा आयोज्य जेएनजी युवा समूहस्य अग्रण्याः ढुङ्गाना विधेन स्वस्य याचनाम सार्वजनिकृत्य जेएनजी युवा सन्ततेः एकीकरणाय राजनीतिक दलम निर्मितम सदपि प्रत्यक्ष कार्यकारी शासकीय स्वरूपस्य विदेशेषु विद्यमानानाम नेपाली नागरिकाणाम कृते मतदानस्य व्यवस्थायाश्च स्वस्य याचनायाः अपूरणम् यावद् निर्वाचने सहभागिता न सम्भवतीति उक्तम् वर्तते। अग्रणी ढुङ्गाना भ्रष्टाचारस्य नियन्त्रणाय नागरिकस्तरीयाम् अनुसन्धान समितिम् संघटयितुम् आर्थिक रूपान्तरणस्य स्पष्टनीतिम् निर्माय क्रियान्वेतुम् च बलम् प्रदत्तवान्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अस्यैव कार्तिकस्य त्रयोदशम् दिवसम् यावत् स्थगितीकृतो वर्तते। नेपाली कांग्रेस दलस्य पूर्व केन्द्रीय सदस्यस्य पूर्व मन्त्रिणश्च ऋषिकेश गौतम इत्यस्य चतुरशीतितमे वयसि निधनस्य कारणेन अस्यैव कार्तिकस्य त्रयोदशम् दिवसम् यावत् उपवेशः स्थगितीकृतः इति दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः असूचयत्। ललितपुरस्य सानेपा स्थाने उपविष्टेन उपवेशेन गौतमस्य गताश्विन मासस्य एकत्रिंशे दिवसे जातस्म निधनम् प्रति गभीरम् दुःखम् अभिव्यज्य शोक प्रस्तावः पारितीकृतो वर्तते। एवमेव उपवेशेन स्वर्गीयम् गौतमम् प्रति उच्च सम्मानम् प्रकटयित्वा ह्यस्तनात् दिवसाद दिवसत्रयम् यावत् दलस्य केन्द्रीय कार्यालये प्रदेशेषु जनपद कार्यालयेषु च दलस्य ध्वजम् अर्धम् नमयितुम् निर्णीतम् अस्तीति मुख्य सचिवः पौडेलः असूचयत्। गताश्विन मासस्य अष्टादश दिवसस्य वृष्टेः पश्चात् दूरापन्नस्य भूस्खलनस्य कारणेन अवरूद्धः मेची राजमार्ग ह्य सञ्चालितोऽस्ति। मेची राजमार्गस्य अन्तर्गतस्य इलाम नगरपालिकायाः नववडा क्षेत्रे इलाम राजदुवाली मार्ग खण्डस्य सम्भारानन्तरम् ह्य रात्रौ नववादनात् यातायात साधनानि मार्गेऽस्मिन् सञ्चालितानि सन्तीति इलाम प्रमुख जनपदाधिकारी सुनिता नेपालः असूचयत। मार्गमा शाखा कार्यालयस्य इलाम जनपदीय शाखाया स्थानीयानाम् जनानाम् सुरक्षाकर्मिणाम् च नैरन्तर्यस्य सप्ताहद्वयस्य प्रयासस्य पश्चात् मार्गम् सञ्चालयितुम् सफलता अधिगतास्तीति इलाम मार्ग महाशाखा कार्यालयस्य प्रमुख पवन भट्टराई असूचयत। राजमार्गस्य सञ्चालनानन्तरम् इलाम जनपदेन सह पाँचथर ताप्लेजुङ झापा जनपदेषु गमनागमनाय सहजता सम्भूतास्तीति प्रमुख भट्टराई असूचयत। रौतहट जनपदे नद्याम् निमज्य बालकद्वयम् मृतम् वर्तते। जनपदस्य गरूडा नगरपालिकायाः पञ्चम वडा क्षेत्रस्य शिवनगरवर्तिन्याम् झाज नद्याम् ह्य स्नानस्य क्रमे निमज्य देवाही गोनाही नगरपालिकायाः तृतीय वडा क्षेत्रस्य दशवर्षीय नीरज शाह अपरः दशवर्षीय अर्जुन शाहश्च मृतौ इति रौतहट जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। इति समाचाराः।